यत्नेषु सर्वेष्वभिनावकेशी केशी सभोजेशि दुरिष्टबन्धुः त्वं सिन्धुजावाप्ययितीव मत्वा सम्प्राप्तवान् सिन्धुजवाजिरूपः गन्धर्वतामेष गतोऽभिरुक्षैर्नादैः समुद्वेजितः सर्वलोकः भवद्विलोकावधिगोपवाडिं प्रमर्द्य पापपुनरापतत्वम् तक्ष्यार्पिताङ्घ्रेस्तव दार्क्ष्य एष चिक्षेपवक्षो भुवि नामपादम् भृगोपदाखादकथां निशम्य स्वेनापि शक्यं तदिदीव मोहात् प्रवञ्जयन्नस्य कुराञ्जलं द्राक् अमुं च चिक्षेपित दूरदूरं सम्मूर्छितोऽपि हृदि मूर्छितेन क्रोधोष्मणा खादिदुमादृतस्त्वम् त्वं वाकदण्डे कृदधीश्च वाहादण्डं न्यधास्तस्य मुखे तदानीं तद्बृद्धिरुद्धश्वसनो गदा सुसप्तीभवन्नप्ययमैक्यमागात् आलम्भमात्रेण पशोसुराणां प्रसादगे नूत्न इवाश्वमेधे कृते त्वया हर्षवशात् सुरेन्द्रास्त्वां तुष्टुवुः केशव नामधेयम् कंसायते शौरिसुधत्वमुक्त्वा तं तद्वदोत्कं प्रतिरुध्य वाजा प्राप्तेन केशिक्षपणावसाने श्रीनारदेन त्वमभिष्टुतोऽभूः कदापि गोपैः सह काननान्दे निलायनक्रीडनलोलुपं त्वां मयात्मजप्रापदुरन्दमायो व्योमाभिदो व्योमचरोपरोधी सचोरपालायितवल्लवेषु चोरायितो गोपशिशून् पशुंश्च गुहासु कृत्वा पिदधे शिलाभिस्त्वया च बुद्ध्वा परिमर्दितोऽभूत् एवं विदेश्चाद्भुतकेळिभेदैरानन्दमूर्च्छा मधुलां व्रजस्य पदे पदे नूतनयन्न सीमां परात्मरूपिन् पवनेशपायाः श्रीहरये नमः गोपिका जीवनस्मरणं गोविन्दा गोविन्दा।